इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका निधि तिवारी। अथ वार्ताः। अद्य लोकसभा निर्वाचनस्य द्वितीयचरणाय सर्वाः सज्जताः सम्पूरिताः। एतस्मै प्रचाराभियानं गतबुधवासरे सम्पन्नं जातम्। एतस्मिन् द्वितीयचरणे 88 लोकसभासनेभ्यः 12 राज्येषु केन्द्रशासितप्रदेशेष्वपि मतदानं भविष्यति। अपि च बाह्य मणिपुर लोकसभाक्षेत्राय अपि अस्मिन्नेव चरणे मतदानं भविष्यति। अद्य यत्र मतदानं भविष्यति तेषु केरलस्य 20 आसनानि, कर्णाटकस्य 14 आसनानि, राजस्थानस्य 13 आसनानि, उत्तरप्रदेश महाराष्ट्रयोः 8 आसनानि, मध्यप्रदेशस्य 6 आसनानि, असमस्य 5 आसनानि, बिहारस्यापि 5 आसनानि, पश्चिमबंगालस्य 3 आसनानि, छत्तीसगढस्यापि 3 आसनानि, त्रिपुरा जम्मूकश्मीरयोः 1 आसनं समेत्य द्वितीयचरणेऽस्मिन् मतदानानि भविष्यन्ति। अवधेयं वर्तते यत् मध्यप्रदेशस्य बैतूल संसदीय आसने बसपा प्रत्याशिनः निधनकारणात् द्वितीयचरणे भविष्यमाणं निर्वाचनं साम्प्रतं तृतीये चरणे भविष्यति। अस्मिन् चरणे बाह्य मणिपुर लोकसभाक्षेत्रात् 4 प्रत्याशिनः समेत्य 2,200,000 प्रत्याशिनः निर्वाचन समारांगणे सन्ति। मतदानं प्रातः 7 वादनतः सायंकाले 6 वादनं यावत् भविष्यति। 16,00,000 मतदातृ अधिकारिणः 67.1 लक्ष मतदातृ केन्द्रेषु 15.88 कोटि मतदातृणां स्वागतं विधास्यन्ति। अद्य केषाञ्चित् प्रमुखाणां राजनीतिक मुखानामपि भाग्य निर्णयो भविष्यति, यस्मिन् राहुल गांधी, शशि थरूरः, हेमा मालिनी इत्यादयः सम्मिलिताः सन्ति। लोकसभा निर्वाचनस्य 4th चरणाय नामांकन पूरण प्रक्रिया ह्यः सायं समाप्ता जाता। नामांकन प्रत्यर्पणानाम् अनुसन्धेय कार्यम् अद्य भविष्यति। प्रत्याशिनः अप्रैल मासस्य 29 दिनांकं पर्यन्तं स्वस्य नामांकन प्रत्यावर्तनं कर्तुं शक्नुवन्ति। अस्मिन् चरणे मई मासस्य 13 दिनांके 9 राज्येषु 1 केन्द्रशासित प्रदेशे च 96 आसनेभ्य मतदानं भविष्यति। निर्वाचनायोगेन भाजपा कांग्रेस दलयोः शीर्ष प्रचारकैः कथित आदर्श आचार संहितायाः उल्लंघनम् अभिज्ञातम्। निर्वाचनायोगेन भाजपा दलाध्यक्षाय जगत प्रकाश नड्डा इत्यस्मै, कांग्रेस दलाध्यक्षाय मल्लिकार्जुन खरगे इत्यस्मै च पत्रं विलिख्य अस्य मासस्य 29 दिनांकं यावत् पूर्वाह्णे 11 वादनं यावत् प्रत्युत्तरम् अभ्यर्थितम्। एतस्मिन् पत्रे आयोगेन निर्दिष्टम् यत् सर्वे मुख्य प्रचारकाः राजनीतिक संवादस्य उच्चमानं स्थापयन्तु, अपि च आदर्श आचार संहितायाः प्रावधानान्यपि अनुपालयन्तु। कांग्रेस, सीपीआई, सीपीआईएम दलैः स्वीय परिवेदनासु श्रीमोदिनः राजस्थानस्य बांसवाड़ा क्षेत्रे प्रदत्ते नैर्वाचनिक अभिभाषणे आपत्तिः अभिव्यक्ता। तत्रैव भाजपेति दलेन स्वीय परिवेदनायां कांग्रेसनेतुः राहुल गांधिनः केरलस्य कोट्टायम स्थले संभाषिते भाषणे आपत्तिः प्रकटिता। आईपीएल इत्याख्यायां क्रिकेट स्पर्धायां ह्यः हैदराबाद नगरस्य राजीव गांधी अन्ताराष्ट्रिय क्रीडांगणे रॉयल चैलेंजर्स बैंगलुरु दलेन सनराइजर्स हैदराबाद दलं 35 धावनांकैः पराजितम्। अद्यतनीयं द्वन्द्वं सायं 7:30 कोलकाता नगरस्य ईडेन गार्डन्स क्रीडांगणे कोलकाता नाइट राइडर्स पंजाब किंग्स दलयोर मध्ये भविष्यति इति वार्ताः।